ॐ अस्य श्रीनवार्णमन्त्रस्य ब्रह्मविष्णुरुद्रारिषयः गायत्र्युष्णुः अनुष्टुप् छन्दांसि श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः ऐं बीजम् ह्रीं शक्तिः क्लीं कीलकम् श्रीमहाकाली महालक्ष्मी महासरस्वती प्रीत्यर्थे जपे विनियोगः ब्रह्मविष्णुरुद्रऋषिभ्यो नमः शिरसि गायत्र्युष्णुकनुष्टुप्छन्दोभ्यो नमः मुखे महाकाली महालक्ष्मी महासरस्वती देवताभ्यो नमः हृदि ऐं बीजाय नमः गुह्ये ह्रीं शक्तये नमः पादयोः क्लीं कीलकाय नमः नाभौ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॐ ऐं अङ्गुष्टाभ्यां नमः ॐ ह्रीं तर्जनीभ्यां नमः ॐ क्लीं मध्यमाभ्यां नमः ॐ चामुण्डायै अनामिकाभ्यां नमः ॐ विच्चे कनिष्ठिकाभ्यां नमः ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः ॐ ऐं हृदयाय नमः ॐ ह्रीं शिरसे स्वाहा ॐ क्लीं शिखायै वशट् ॐ चामुण्डायै कवचाय हुम् ॐ विच्चे नेत्रत्रयाय भौषट् ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् ॐ ऐं नमः शिखायाम् ॐ ह्रीं नमः दक्षिणनेत्रे ॐ क्लीं नमः वामनेत्रे ॐ चां नमः दक्षिणकर्णे ॐ हुं नमः वामकर्णे ॐ डां नमः दक्षिणनासापुटे ॐ यैं नमः वामनासापुटे ॐ विं नमः मुखे ॐ चें नमः गुह्ये ॐ ऐं प्राच्यै नमः ॐ ऐं आग्नेय्यै नमः ॐ ह्रीं दक्षिणायै नमः ॐ ह्रीं नैऋत्यै नमः ॐ क्लीं प्रतीच्यै नमः ॐ क्लीं वायव्यै नमः ॐ चामुण्डायै उदीच्यै नमः ॐ चामुण्डायै ऐशान्यै नमः ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः ध्यानम् खड्गम् चक्रगदेषु जापपरिधान् स्थूलम् भुजुण्डीम् शिरः शङ्खम् सन्दधतीम् करैस्त्रिनयनाम् सर्वाङ्गभूषावृताम् नीलाश्वद्युतिमास्य पादशकाम् सेवे महाकालिकाम् यामस्त्वोत्स्वपिते हरौ कमलजोहन्तुम् मधुम् कैटभम् अक्षस्रक् परशुम् गदेषु कुलिशम् पद्मम् धनुः कुण्डिकाम् दण्डम् शक्तिमसिम् च चर्मजलजम् घण्टाम् सुराभाजनम् शूलम् पाशसुदर्शने च दधतीम् हस्तैः प्रसन्नाननाम् सेवे सैरिभवर्दिनीमिह महालक्ष्मीम् सरोजस्थिताम् घण्टाशूलहलानि शङ्खमुसले चक्रम् धनुःसायकम् हस्ताब्जैर्दधतीम् घनान्तविलसच्छीताम् श्रुतुल्यप्रभाम् गौरीदेहसमुद्भवाम् त्रिजगतामाधारभूताम् महापूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनी ऐं ह्रीम् अक्षमालिकायै नमः ॐ माम् माले महामाये सर्वशक्तिस्वरूपिणि चतुर्वर्गस्त्वयिन्यस्तस्मान्मे सिद्धिदा भव अविघ्नम् कुरु माले त्वम् गृह्णामि दक्षिणेकरे जपकाले च सिद्ध्यर्थम् प्रसीद मम सिद्धये। ओम् अक्षमालाधिपतये सुसिद्धिम् देहि देहि सर्वमन्त्रार्थसाधिनी। साधय साधय सर्वसिद्धिम् परिकल्पय परिकल्पय मे स्वाहा। गुह्यादिगुह्यगोत्री त्वम् गृहाणास्मत्कृतम् जपम्। सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरी।